पञ्चमः परिच्छेदः भक्तस्थले पिण्ड पिण्डज्ञान संसारहेयस्थलप्रसङ्गः सिद्धान्तकथनम् अथागस्त्यवचः श्रुत्वा रेणुको गणनायकः ध्यात्वा क्षणम् महादेवम् साम्बमाह समाहितः अगस्त्यमुनिशार्दूल समस्तागमपारग शिवज्ञानकरं वक्षे सिद्धान्तं शृणु सादरम् अगस्त्य खलु सिद्धान्ता विख्याता रुचिभेदतः भिन्नाचारसमायुक्ता भिन्नार्थप्रतिपादकाः साङ्ख्यम् योगः पाञ्चरात्रम् वेदाः पाशुपतम् तथा एतानि मानभूतानि नोपहन्यानि युक्तिभिः वेदप्रधानम् सर्वेषाम् साङ्ख्यादीनाम् महामुने वेदानुसरणादेषाम् प्रामाण्यमिति निश्चितम् पाञ्चरात्रस्य साङ्ख्यस्य योगस्य च तथा मुने वेदैकदेशवर्तित्वम् शैवम् वेदमयम् मतम् वेदैकदेशवर्तिभ्यः साङ्ख्यादिभ्यो महामुने सर्ववेदानुसारित्वात् शैवतन्त्रम् विशिष्यते शैवतन्त्रमिति प्रोक्तम् सिद्धान्ताख्यम् शिवोदितम् सर्ववेदार्थरूपत्वात् प्रामाण्यम् वेदवत्सदा आगमा बहुधा प्रोक्ता शिवेन परमात्मना शैवम् पाशुपतम् सोमम् लाकुलम् चेति भेदतः तेषु शैवम् चतुर्भेदम् तन्त्रम् सर्वविनिश्चितम् वामम् च दक्षिणम् चैव मिश्रम् सिद्धान्तसंज्ञकम् शक्तिप्रधानम् वामाख्यम् दक्षिणम् भैरवात्मकम् सप्तमातृपरम् मिश्रम् सिद्धान्तम् वेदसम्मतम् वेदधर्माभिधायित्वात् सिद्धान्ताख्यः शिवागमः वेदबाह्यविरोधित्वात् वेदसम्मत उच्यते वेदसिद्धान्तयोरैक्यम् एकार्थप्रतिपादनात् प्रामाण्यम् सदृशम् ज्ञेयम् पण्डितैरेतयोः सदा सिद्धान्ताख्ये महातन्त्रे कामिकाद्ये शिवोदिते निर्दिष्टमुत्तरे भागे वीरशैवमतं परम्। विद्यायां शिवरूपायां विशेषाद्रमणं यतः तस्मादेते महाभागा वीरशैवा इति स्मृताः। वीशब्देनोच्यते विद्या शिवजीवैक्यबोधिका तस्यां रमन्ते ये शैवा वीरशैवास्तु ते मताः। विद्यायां रमते यस्मात् मायां हेयां श्वद्रहेत अनेनैव निरुक्तेन वीरमाहेश्वरस्मृतः। वेदान्तजन्यं यज्ञानं विद्येते परिकीर्त्यते विद्यायां रमते तस्यां वीर इत्यभिधीयते। शैवैर्माहेश्वरश्चैव कार्यमन्तर्बहिःक्रमात् शिवो महेश्वरश्चेति नात्यन्तमिह भिद्यते। यथा यथा न भिद्यन्ते शैवा माहेश्वरा अपि शिवाश्रितेषु ते शैवा ज्ञानयज्ञरता नराः। माहेश्वरा समाख्याता कर्मयज्ञरता भुवे तस्मादाभ्यन्तरे कुर्युः शैवा माहेश्वरा बहिः। वीरशैवाः षड्भेदाः। वीरशैवास्तु षड्भेदा स्थलधर्मविभेदतः भक्तादिव्यवहारेण प्रोच्यन्ते शास्त्रपारगैः। शास्त्रं तु वीरशैवानां षड्विधं स्थलभेदतः धर्मभेदसमायोगात् अधिकारिविभेदतः। आदौ भक्तस्थलं प्रोक्तं ततो माहेश्वरस्थलं प्रसादिस्थलमन्यत्तु प्राणलिङ्गिस्थलं ततः शरणस्थलमाख्यातं षष्ठमैक्यस्थलं मतम्। भक्तस्थलम् भक्तस्थलं प्रवक्ष्यामि प्रथमं कलशोद्भव तदवान्तरभेदांश्च समाहितमनाशृणु। शैवी भक्तिः समुत्पन्ना यस्यासौ भक्त उच्यते तस्यानुष्ठेयधर्माणाम् उक्तिर्भक्तस्थलं मतम्। अवान्तरस्थलान्यत्र प्राहुः पञ्चदशोत्तमाः पिण्डतापिण्डविज्ञानम् संसारगुणहेयता। दीक्षालिङ्गधृतिश्चैव విభూతేరపి ధారణం రుద్రాక్ష ధారణం పశ్చాత్ పంచాక్షర జపస్తథా భక్త మార్గ క్రియా చైవ గురోర్లింగస్య చార్చనం జంగమస్య తథా శేషాం ప్రసాద స్వీకృతిస్తథా అత్ర దానత్రయం ప్రోక్తం సోపాధి నిరుపాధికం సహజం చేతి నిర్దిష్టం సమస్తాగమపారగై ఏతానే శివభక్తస్య కర్తవ్యాని ప్రయత్నతః అథ పిండస్థలం బహుజన్మకృతైః పుణ్యైః ప్రక్షీణే పాపపంజరే శుద్ధాంతఃకరణో దేహి పిండశబ్దేన గీయతే శివశక్తిసముత్పన్నే ప్రపంచేస్మిన్ విశిష్యతే పుణ్యాధికక్షీణ పాపః శుద్ధాత్మా పిండనామకః ఏక ఏవ శివ సాక్షాత్ చిదానందమయో విభుః నిర్వికల్పో నిరాకారో నిర్గుణో నిష్ప్రపంచకః అనాద్య విద్యా సంబంధాత్ తదంశో జీవనామకః దేవతిర్యం మనుష్యాది జాతిభేదే వ్యవస్థితః మాయే మహేశ్వరస్తేషాం ప్రేరకో హృది సంస్థితః చంద్రకాంతే యథా తోయం సూర్యకాంతే యథా నలః బీజే యథాంకురః సిద్ధః తథాత్మని శివస్థితః ఆత్మత్వమీశ్వరత్వం చ బ్రహ్మణ్యేకత్ర కల్పితం బింబత్వం ప్రతిబింబత్వం యథా పూషణి కల్పితం గుణత్రయ విభేదేన పరతత్వే చిదాత్మని భోక్తృత్వం చైవ భోజ్యత్వం ప్రేరకత్వం చ కల్పితం గుణత్రయాత్మికా శక్తిః బ్రహ్మనిష్టా సనాతనే తద్వైషమ్యాత్ సముత్పన్నా తస్మిన్ వస్తుత్రయాభిదా కించిత్ సత్వరజో రూపం భోక్తృసంజ్ఞకముచ్యతే అత్యంత తామసోపాధిః భోజ్యమిత్ ఇత్యభిధీయతే పరతత్వమయోపాధిః బ్రహ్మచైతన్యమీశ్వరః భోక్తా భోజ్యం ప్రేరయిత వస్తుత్రయమిదం స్మృతం అఖండే బ్రహ్మచైతన్యే కల్పితం గుణభేదతః అత్ర ప్రేరయితా శంభుః శుద్ధోపాధిర్మహేశ్వరః సమ్మిశ్రోపాధయః సర్వే भोक्तारः पशवस्मृताः भोज्यमव्यक्तमित्युक्तम् शुद्धतामसरूपकम् सर्वज्ञः प्रेरकशम्भुः किञ्चिज्ञो जीव उच्यते अत्यन्तगूढचैतन्यम् जडमव्यक्तमुच्यते उपाधिः पुनराख्यातः शुद्धाशुद्धविभेदतः शुद्धोपाधिः परा माया स्वाश्रया मोहकारिणी अशुद्धोपाधिरप्येवम् अविद्याश्रयमोहिनी अविद्याशक्तिभेदेन जीवा बहुविधा स्मृताः मायाशक्तिवशादीशो नानामूर्तिधरः प्रभुः सर्वज्ञः सर्वकर्ता च नित्यमुक्तो महेश्वरः किञ्चित्कर्ता च किञ्चिज्ञो बद्धो नादिशरीरवान् अविद्यामोहिता जीवा ब्रह्मैक्यज्ञानवर्जिताः परिभ्रमन्ति संसारे निजकर्मानुसारतः देवतिर्यं मनुष्यादि नानायोनिविभेदतः चक्रनेमिक्रमेणैव भ्रमन्ति हि शरीरिणः जात्यायुर्भोगवैषम्य कारणं कर्म केवलम् एतेषां देहिनां साक्षी प्रेरकः परमेश्वरः एतेषां भ्रमतां नित्यं कर्मयन्त्रनियन्त्रणे देहिनां प्रेरकशम्भुः हितमार्गोपदेशकः पुनरावृत्तिरहित मोक्षमार्गोपदेशकः स्वकर्म परिपाकेन प्रक्षीणमलवासनः शिवप्रसादाज्जीवोऽयम् जायते शुद्धमानसः शुद्धान्तःकरणे जीवे शुद्धकर्मविपाकतः जायते शिवकारुण्यात् प्रस्फुटा भक्तिरैश्वरी जन्तुरन्त्यशरीरोऽसौ पिण्डशब्दाभिधेयकः अथ पिण्डज्ञानस्थलम् शरीरात्मविवेकेन पिण्डज्ञाने स कथ्यते शरीरमेव चार्वाकैः आत्मेति परिकीर्त्यते इन्द्रियाणां तथात्मत्वम् अपरैः परिभाष्यते बुद्धितत्त्वगतैर्बौद्धैः बुद्धिरात्मेति गीयते नेन्द्रियाणां न देहस्य न बुद्धेरात्मता भवेत् अहम् प्रत्ययवेद्यत्वात् अनुभूतस्मृतेरपि शरीरेन्द्रियबुद्धिभ्यो व्यतिरिक्तः सनातनः आत्मस्थितिविवेकीयः पिण्डज्ञानी स कथ्यते नश्वराणि शरीराणि नानारूपाणि कर्मणा आश्रितो नित्य एवासौ इति जन्तोर्विवेकिता शरीरात् पृथगात्मानम् आत्मभ्यः पृथगीश्वरम् प्रेरकम् यो विजानाति पिण्डज्ञानीति कथ्यते अथ संसारहेयस्थलम् निरस्तहृत्कलङ्कस्य नित्यानित्यविवेकिनः संसारहेयता बुद्धिः जायते वासनाबलात् ऐहिके क्षणिके सौख्ये पुत्रदारादिसम्भवे क्षयित्वादियुते स्वर्गे कस्य वाञ्छा विवेकिनः जातस्य हि ध्रुवो मृत्युः ध्रुवम् जन्म मृतस्य च जन्तुर्मरणजन्माभ्याम् परिभ्रमति चक्रवत् मत्स्यकूर्मवराहाङ्गैः नृसिंहमनुजादिभिः जातेन निधनम् प्राप्तम् विष्णुनापि महात्मना भूत्वा कर्मवशाज्जन्तुः ब्राह्मणादिषु जातिषु तापत्रयमहावह्नि सन्तापाद्दह्यते भृशम् कर्ममूलेन दुःखेन पीड्यमानस्य देहिनः आध्यात्मिकादिना नित्यम् कुत्र विश्रान्तिरिष्यते आध्यात्मिकम् तु प्रथमम् द्वितीयम् चाधिभौतिकम् आधिदैविकमन्यच्च दुःखत्रयमिदम् स्मृतम् आध्यात्मिकम् द्विधा प्रोक्तम् बाह्याभ्यन्तरभेदतः वातपित्तादिजम् दुःखम् बाह्यमाध्यात्मिकम् मतम् रागद्वेषादिसम्पन्नम् आन्तरम् परिकीर्त्यते आधिभौतिकमेतद्धि दुःखम् राजादिभूतजम् आधिदैविकमाख्यातम् ग्रहयक्षादिसम्भवम् दुःखैरेतैरुपेतस्य कर्मबद्धस्य देहिनः स्वर्गे वा यदि वा भूमौ सुखलेशो न विद्यते तटित्सु वीचिमालासु प्रदीपस्य प्रभासु च सम्पत्सु कर्ममूलासु कस्य वा स्थिरता मतिः మలకోశే శరీరేస్మిన్ మహాదుఃఖ వివర్ధనే తడిదంకుర సంకాశే కోవారుచేత పండితః నిత్యానంద చిదాకారం ఆత్మతత్వం విహాయకః వివేకీ రమతే దేహే నశ్వరే దుఃఖభాజనే వివేకీ శుద్ధహృదయో నిశ్చితాత్మసుఖోదయః దుఃఖహేతౌ శరీరేస్మిన్ కలత్రే చ సుతేషు చ సుహృత్సు బంధువర్గేషు ధనేషు కులపద్ధతౌ అనిత్యబుద్ధ్యా సర్వత్ర వైరాగ్యం పరమశ్నుతే వివేకినో విరక్తస్య విషయేష్వాత్మరాగిణః సంసార దుఃఖ విచ్ఛేద హేతౌ బుద్ధిః ప్రవర్తతే నిత్యానిత్య వివేకినః సుకృతినః శుద్ధాశయస్యాత్మనో బ్రహ్మోపేంద్రమహేంద్రముఖ్య విభవేష్వస్థాయితాం పశ్యతః నిత్యానందపదే నిరాకృతజగత్సంసారదుఃఖోదయే సాంబే చంద్రశిరోమణౌ సముదయేద్భక్తిర్భవద్వంసినీ ఓం తత్సదితి శ్రీశివగీతేషు సిద్ధాంతాగమేషు శివాద్వైత విద్యాయాం శివయోగశాస్త్రే శ్రీరేణుకాగస్త్య సంవాదే వీరశైవధర్మనిర్ణయే శ్రీశివయోగి శివాచార్య విరచితే శ్రీసిద్ధాంతశిఖామణో భక్తస్థలే పిండాదిస్థలత్రయ ప్రసంగో నామ పంచమహాపరిచ్ఛేదః